इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुरुषोत्तम शर्मा। अथ वार्ताः। प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तं यत् सः गौरवम् अनुभवति यत् पहलगामे आतंक्याक्रमणस्य अनन्तरं ऑपरेशन सिन्दूर अभियानस्य च अनन्तरं आतंकवादस्य समापनाय विविधदेशेषु बहुदलीय प्रतिनिधिमण्डलेन भारतस्य विचाराः प्रस्तुताः। गतदिने प्रधानमन्त्रिणा बहुदलीय प्रतिनिधिभिः सह मेलनं कृतम्। एकस्मिन् सोशल मीडिया पोस्ट इत्यत्र प्रधानमन्त्री अवोचत् यत् एतैः प्रतिनिधिभिः शान्त्यै भारतस्य प्रतिबद्धताम् आतंकवादस्य समापनावश्यकतां च स्पष्टीकर्तुं महत्वपूर्णा भूमिका निभालिता। राष्ट्रं गौरवम् अनुभवति यत् एतैः भारतस्य विचाराः प्रसारिताः। प्रतिनिधिमण्डलस्य सदस्यैः अपि प्रधानमन्त्रिणे धन्यवादः प्रदत्तः। विदेशमन्त्रिणा डॉ एस जयशंकरेण सीमापारतः आतंकवादे पाकिस्तानं संचेतितं यत् यदि आतंकवादाक्रमणं विधीयते तर्हि भारतं पाकिस्तानं प्रविष्ट्य आक्रमणं करिष्यति। तेनोक्तं यत् साम्प्रतम् एव पहलगामसदृशे निन्दनीय प्रकरणे आतंकवादसंघटनानि तेषां नेतृत्वं च विरुध्य कार्याचरणं विधास्यते। विदेशमन्त्रिणा अमरीकायां राजनीतिक डिजिटल वार्तापत्राय सह साक्षात्कारे उक्तम्। लक्जमबर्ग अथ च बेल्जियम इत्यत्र भारतीय समुदायं सम्बोधयन् डॉ जयशंकरेण पुनः संचेतितं यत् भारतं पाकिस्तानस्य चिन्तां विहाय आतंकवादस्य प्रतिकारं करिष्यति। रक्षामन्त्री राजनाथसिंहः अवोचत् यत् ऑपरेशन सिन्दूराभियानस्य अनन्तरं आतंकवादं विरुध्य भारतस्य अद्यावधिं यावत् बृहत्तमं कार्याचरणम् अवर्तत। गतसायं देहरादूननगरे एकस्मिन् कार्यक्रमे रक्षामन्त्री अवदत् यत् पहलगामे आतंक्याक्रमणं न केवलं भारतीय नागरिकेषु आक्रमणम् आसीत् अपितु देशस्य सामाजिकम् ऐक्यं प्रति आक्रमणम् आसीत्। रक्षामन्त्री सबलम् अवोचत् यत् आतंकवादिभिः धर्मम् आलक्ष्य आक्रमणं कृतम्, परं भारतेन धर्मं विहाय कर्माणि आलक्ष्य निर्णायकं कार्याचरणं विहितम्। श्रीसिंहेन अन्ताराष्ट्रिय समुदायः पाकिस्ताने राजनीतिकं कूटनीतिकम् आर्थिकं च आपीडं कर्तुं निवेदितः।
के गुनाहों की लिस्ट बहुत ही लंबी है और पाकिस्तान हर बार आतंकवाद को सही ठहराने की कोशिश में सदैव लगा रहता है। इसलिए जरूरी है कि आतंकवाद के खिलाफ लड़ाई में हम केवल आतंकवादियों को ही नहीं बल्कि उन्हें मदद करने वाले पूरे टेरर इंफ्रास्ट्रक्चर को भी पूरी तरह से खत्म कर दें। पाकिस्तान को जो पैसा या आर्थिक सहायता मिलती है उसका एक बड़ा हिस्सा आतंकवाद के कारखाने में खर्च किया जाता है।
प्रवर्तमानस्य विकसित कृषि संकल्पाभियानस्य अन्तर्गतं केन्द्रीय कृषि कृषक कल्याण मन्त्री शिवराज सिंह चौहानः अद्य तीगीपुरे बख्तावरपुरे उत्तरदिल्ल्यां च कृषकैः सह मेलनं करिष्यति। अत्रावसरे असौ किसान चौपाल इत्यस्य अन्तर्गतं संवादं करिष्यति। अस्मिन् कार्यक्रमे कृषि विज्ञान केन्द्रम् उजवा भारतीय कृषि अनुसन्धान संस्थानं च प्रतिभागं करिष्यन्ति। गृहमन्त्रिणा अमितशाहेन देशे जलौघ प्रबन्धने सज्जतायाः समीक्षायै नवदिल्ल्याम् उच्चस्तरीयोपवेशनस्य अध्यक्षता कृता। अस्मिन् उपवेशने गृहमन्त्रिणा देशे जलौघस्य दुष्प्रभावं न्यूनीकर्तुं विधीयमानानां दीर्घकालिकोपायानाम् अपि समीक्षा कृता। गतदिने गृहमन्त्रालयेन एकस्मिन् वक्तव्ये उक्तं यत् श्रीशाहेन जलौघ प्रबन्धनाय सर्वाभिः संस्थाभिः स्वीकृतानां नूतन प्रविधीनां तेषां विस्तारे च चर्चा कृता। गृहमन्त्रिणा इदमपि उक्तं यत् प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वे भारतस्य आपदा प्रबन्धनं शून्यहानेः दृष्टिकोणेन सह अग्रे वर्धते। तेन NDMA इति राष्ट्रिय आपदा प्रबन्धन प्राधिकरणाय राज्य आपदा प्रबन्धन प्राधिकरणैः सह समन्वयनस्य निर्देशः दत्तः। ऑस्ट्रेलियन रेस वॉकिंग चैंपियनशिप क्रीडायां महिलावर्गे भारतस्य प्रियंका गोस्वामी स्वर्णपदकं प्राप्तवती। तया 10 किलोमीटर मितस्य धावनं 54.47 निमेषेषु एव कृतम् इति वार्ताः।